परम विदुषो यद्य सदृशि स्तुतिर्ब्रह्मादीनामपि तदव सन्नास्त्वहि गिरः अथ वाचः सर्वः स्वमतिपरिणामावधिगुणम् ममापेश स्तोत्रे हरनिरपवादः परिकरः अतीतः पन्थानम् तव च महिमा वाङ्मनसयोस्तदव्यावृत्यायम् चकितमभिधत्ते श्रुतिरपि सतस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः मधुसीतावाचः परममृतम् निर्मितवतः तव ब्रह्मन् किं वा अपि सुरगुरोर्विस्मयपदम् मम त्वेतां वाणी गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता तवैश्वर्यं यत्तच् जगदुदयरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तम् तिसृषु गुणभिन्नासु तनुषु अभव्यानामस्मिन् वरदरमणीयामरमणि विहन्तुम् जाक्रोशिन् विदधत इहैके जडधियः स खलु किमुपायस्त्रिभुवनम् किमाधारो धाता सृजति किमुपादान इति च अतर्क्यैश्वर्ये त्वय्यनवसरदुस्थो हतधियः कुतः कोऽयं काञ्चिन् मुखरयति मोहाय जगतः अजन्मानो लोकाः किमवयवन्तोऽपि जगताम् अधिष्ठातारं किम् भवविधिरनाग्रस्य भवति अनीशो वा कुर्यात् भुवनजनने कः परिकरो यतो मन्दा स्वां प्रत्यमरवरसंशेयत इमे त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च रुचीनां वैचित्र्या जुकुटिलनानां पथजुषां नृणामेको गम्यः त्वमसि पयतामर्णव एव महोक्षः खट्वाङ्गम् परशुरजिनं भस्मफणिनः कपालं चेति यत् तव वरदतन्त्रोपकरणम् सां तां वृद्धिम् दधति च भवद्भूप्रणीताम् न हि स्वात्मा रामम् विषयमृगतृष्णाभमयति ध्रुवम् कश्चित् सर्वम् सकलमपरत्वधुवमिदम् परो द्रव्याद्रव्ये जगति गदति यस्य विषये समत्येर्ते तस्मिन् पुरमथनतैर्विस्मित इव तु वञ्जिहेमि त्वा न खलु ननु दृष्टा भुखरता सवैश्वर्यं यत्नात् यदुपरि विरञ्चिर्हरिरथ परिच्छेत्तुं याता वनलमनलस्कन्धवपुषः ततो भक्ति श्रद्धा भरगुरुगृणभ्यां गिरिशयत् स्वयं तस्थेताभ्यां तव किमनुवृत्तिर्न फलति अयत्नादापाद्य त्रिभुवनमवैरभ्यतिकरम् दशाशो यत्बाहूनभृतरण कण्डूपरवशान् शिरःपद्मश्रेणी रचितचरणाम्भोरुहबलेः स्थिराया त्वद्भक्ते त्रिपुरहरविस्पूजितमिदम् अमुष्यत्पत्तेवा समधिगतसारौ भुजवनौ बलात् कैलासेऽपि वदधिवततौ विक्रमयतः अलब्धा पाताले व्यलसचलिताङ्गुष्ठशिरसि प्रतिष्ठा त्वय्यासि ध्रुवमुपचितो मूल्यति खलः वरद परमोच्चैरपि सतिम् अधश्चक्रे बाणः परिजनविधेयसि भुवनः न तच्चित्रम् सम्यक् वरिवसितरित्वच्चरणयोर् न तच्चाप्युन्नत्यै भवति शिरसत्वै यवनतिः अकाण्ड ब्रह्माण्ड क्षयचकित देवासुरकृपा विधेयस्यासिद्यः त्रिनयन विषं संहृतवतः सकल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोऽपिश्लाघो भुवनभयभङ्गव्यसनिनः असिद्धार्थानैव क्वचिदपि स देवासुरनरे निवर्तन्ते नित्यम् जगति जैनो यस्य विशिखाः स पश्यन्नीषत्वाम् इतरसुरसाधारणमभू स्मर्तव्यात्मा न हि वशिशुपथ्य परिभवः महोपादाघातात् व्रजति सहसा संशयपदम् पदम् विष्णोर्भ्राम्यत् भुजपरिघरुग्रग्रहगणम् मुहूर्त्यौ दौस्थ्यम् यात् यनिभृतजटा ताडितकटा जगद्रक्षायै त्वम् नटसि ननु वामैव विभुता यद्व्यापी तारा गणगुणितपेनो प्रवाहो वाराम्यः कृशतलघुद्रष्टः शिरसि ते जगद्वीपाकारम् जलधिवलयम् केन कृतिमि जनेनैवो नेयम् दूतमहिम दिव्यम् तव वपुः रथश्रोणीयन्ता शतधुतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रोऽकौ रथचरणपाणि शरयति विधक्षोते कोऽयम् त्रिपुरतृणमाडम्बरविधिर्विधेयै क्रीडन्त्यो न खलु परतन्त्रः प्रभुधियः हरिस्ते साहस्रम् कमलबलिमाधाय पदयो यदेको नेतस्मिन् निजमुदहरन्नेत्रकमलम् ततो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणाम् रक्षायै त्रिपुरहर जागाति जगता क्रतौ सुप्ते जाग्रन् वमसि फलयोगे क्रतुमता ककर्म प्रध्वस्तम् फलति पुरुषाराधनमृते अतस्त्वाम् संप्रेक्ष्य क्रतुषु फलदान प्रतिभुवम् श्रुतौ श्रद्धाम् बद्ध्वा दृढपरिकरः कर्म सुजनः दक्षो दक्षः क्रतुपतिरधीशस्तनुभृताम् ऋषीणामात्मिज्यम् शरणदतदर्शः सुरगणः क्रतुभेषत्पत्तः क्रतुफलविधानव्यतनिनो ध्रुवम् कर्तुः श्रद्धा विदुरमभिचाराय हि मखा प्रजानाथम् नाथ प्रसभमभिकम् स्वाम् दुहितरम् गतम् रोहित भूताम् त्रिरमयिषु मृष्य वपुषा धनुष्पाणीर्यातम् दिवमपि सपत्राकृतमम् प्रसन्तम् तेऽपि त्यजति न मृगव्याधरवसः स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत् पुरप्लुष्टम् दृष्ट्वा पुरमथनपुष्पारुधमपि यदि स्त्रैणम् देवी यमनिरतदेहादघटना सवैति त्वामद्धा भतवरदमुग्धा युवतय स्मशाने श्वा क्रीडा स्मरहर पिशाचातः चरा चिता भस्मालेपः स्रगपि नृकरोति परिकरः कल्यं शीलम् तव भवतु नामैवमखिलम् तथापि स्मर्तॄणाम् वरद परमम् मङ्गलमसि मनःप्रत्यक्चित्ते सविधमवधायातमरुतः प्रह्यश्चक्रोमाणः प्रमदसनिलो सङ्गीतदृशः यदा लोक्याह्लादम् हृद इव निमज्जामृतमये दधत्यन्तत्तत्त्वम् किमपि यमिनस्तत् किल भवान् त्वमर्कत्वं सोमः त्वमति पवनत्वं हुतवः त्वमापस्त्वं योमत् त्वमुधरणिरात्मा त्वमिति च परिच्छिन्नामेवं त्वयि परिणता विभ्रतुगिरं न विद्मस्तत्सत्त्वम् अयमिह तु यत्त्वं न भवसि त्रयीन्द्रिस्त्रौ वृत्ति त्रिभुवनमथो त्रीनपि सुरा अकाराद्यै वर्णै श्रीभिरभिदधत् तीन विकृति तुरीयं ते धाम मणिभिरवरुन्धानमणुभिः समत्तं व्यस्तं त्वां शरणदगृणात्योमिति पदम् भवः शर्वो रुद्रः पशुपतिरथोग्रः सह महास्तथा भीमेशाना द्वितीयदभिधानाष्टकमिदम् अमुष्मिन् प्रत्येकम् प्रविचरति देवश्रुतिरपि प्रियायास्मै धाम्ने प्रविहितनमस्योऽस्मि भवते नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमः नमः क्षोदिष्ठाय स्मरहरमहिष्ठाय च नमः नमो वर्षिष्ठाय त्रिनयनयविष्ठाय च नमो नमः सर्वस्मै ते तदिदमिति सर्वाय च नमः बहुलर्जते विश्वोत्पत्तौ हवाय नमो नमः प्रबलतमसे तत्सहारे हराय नमो नमः जनसुखकृते सत्त्वोद्रिक्तौ मृणाय नमो नमः रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः कृशपरिणति चेतः केशवश्यं कचेरम् कच तव गुणसि मोल्लङ्घिनि शश्वदृढीः इति चकितममन्ये कृत्यमां भक्तिराधा वरदचरणयोसे वाक्यपुष्पोपहारम् अतितगिरिसमं स्यात् प्रज्ज्वलं सिन्धुपात्रे सुरतरुवरशाखालेखिनीं पत्रमूर्वे लिखति यदि गृहीत्वा शारद सर्वकालम् तदपि तव गुणानामीश पारं न याति असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौलेः ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलधुवृत्तैः स्तोत्र मे तच्चकार अहरहरनवद्यं भूजटे स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान् यः स भवति शिवलोके रुद्रतुल्यस्तथात्र प्रचुरतर धनायुः पुत्रवान् कीर्तिमांश्च महेशान्नापरो देवो महिम्नो न परास्तुतिः अघोरान्नापरो मन्त्रो नासि तत्त्वगुणौ परम् दीक्षादानं तपस्तीसं ज्ञानं योगादिकः प्रियाः महिम्न तव पाठस्य कलां नारं किशोरशी कुसुमदशन नामा सर्वगन्धर्वराजः शिशुशशिधर मौलेर्देव देवस्य दास स खलु निजमहिम्नो भ्रष्ट देवास्य रोषात् स्तवनमिदम काशी दिव्य दिव्यं महिम्नः सुरवर मुनि पूज्यं स्वर्गमोक्षैक हेतुं पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः व्रजति शिवसमीपं किन्नरः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तः प्रणीतम् आसमाप्तमिदं स्तोत्रम् पुण्यं गन्धर्वभाषितम् अनौपम्यं मनोहारी शिवमीश्वरवर्णनम् इत्येषा वाङ्मयी पूजा श्रीमच्छङ्करपादयोः अर्पिता तेन देवेशः प्रीयता मे सदा शिव तव तत्त्वं न जानामि ईदृशोऽसि महेश्वर जाग्रशोऽसि महादेव तादृशाय नमो नमः एककालं द्विकालं वा त्रिकालं च पठे नरः सर्वपापविनिर्मुक्तः शिवलोके महोयते श्रीपुष्पदन्तमुख पङ्कजनिर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण कण्ठस्थितेन पठितेन समाहितेन सुपीडितो भवति भूतपतिर्महेशः